तृतीय स्कंद
कुन विंशोध्याय हिरण्याक्ष बध हिरण्याक्ष बध मैत्रेय उवाच अवधार जबिर इंचस्य निर्व्यलीका मृतम वचः ग्रहस्य प्रेम गर्भेण तदपांगेन सोग्रहित ततः सपत्न मुक्त चरंतम कुतो भयम जघानोत्पत्ति गदया हनौ असुरमक्षजः सा हता तेन गदया विहिता भगवत करात विघूर्णिता पतद्रेजे तदद्भुतमिवाभवत् स तदा लब्ध तीर्थोऽपि न बबाधे निरायुधम् मानीयन् स मृधे धर्मम् विश्वक्सेनम् प्रकोपयन् गदायामप विद्धायाम् हाहाकारे विनिर्गते मानयामास्तद्धर्मम् सुनाभम् चास्मरद्विभुः तम् व्यग्रचक्रम् दितिपुत्राधमेन स्वपार्षद्मुख्येन विसज्जमानम् चित्रा वाचो तद्विदाम् खेचराणाम् तत्रास्मासन् स्वस्तिते मुञ्जहीति स तम् निशम्यातरथाङ्गमग्रतो व्यवस्थितम् पद्मपलासलोचनम् विलोक्य चामर्श परिप्लितेन्द्रिय रुषा स्वदन्तच्छदमादसच्छ्वसन् करालद्रंष्टचक्षुभ्याम् सञ्चक्षाणोदहन्निव अभिप्लुत्य स्वगदया हतोषित्या हनधरिम् पदाशब्येन ताम् साधो भगवान् यज्ञशूकरः लीलयामिषतः शत्रो प्राहरद्वातरङ्गसम् आहचायुधमाधत्स्व घटस्व त्वम् जिगीषसि इत्युक्तः स तदा भूयस्ताडयन् व्यनदद्भृशम् ताम् स आपततिम् वीक्ष्य भगवान् समवस्थित जग्राहलीलया प्राप्ताम् गुरुत्मानिव पण्डगीम् स्वपौरुषे प्रतिहते हतमानो महासुरः नैषद्गदाम् दीयमानम् हरिणा विगत प्रभः जग्राहत्रिशिखम् शूलम् ज्वलज्ज्वलन लोलुपम् जज्ञाय धृतरूपाय विप्रायाभिचरम् यथा तदोजसा दैत्यमहाभटार्पितम् चकाशदन्तः खौदीर्ण दीधिति चक्रेण चिच्छेद निशात नेमिना हरिर्जतार्क्ष्यपतत्रमुज्झितम् वृक्णे स्वशूले बहुधारिणा हरे प्रत्येत विस्तीर्णमुरो विभूतिमत् प्रवृद्ध रोष कठोरमुष्टिना नदत् प्रहृत्यान्तर्धीयतासुरः तेनेत्थमाहतः छतर भगवानादिशूकरः नाकम्पतम् नाकापि सृजाहत इव द्विवः अथोरुधा सृजन्मायाम् योगमायेश्वरे हरौ याम् विलोक्य प्रजा त्रस्ता मे निरयस्योपसंयमम् प्रबुर्वायवश्चण्डा तमः पांसो मैरयन् दिग्भ्यो निपेतुर्ग्रावाणा क्षेपणे प्रहिता इव द्यौर्नष्टभगणाभ्रौघैः सद्विद्युत्स्नैत्नुभिः वर्षद्भिः पूय केशाश्रिग्विण्मुत्रास्थिनि चासकृग्रेयः प्रतदृश्यन्त नानायुधमुचो नघ दिग्वासो जातु धन्य सुलुन्य मुक्तमूर्धजः बहुवीर्जक्षरक्षोभिः पत्यस्वरथकुञ्जरैः आततायभिरुत्सृष्ट हिंस्रावाचोति वैशसा प्रादुष्कृतानाम् मायानाम् आसुरीणाम् विनाशयत् सुदर्शनास्त्रम् भगवान् पायिन् तदैतम् त्रिपात् तदा दिते समभवत् सहसा हृदि बेपथु स्मरन्त्या भर्तुरादेशम् अस्तनाच्चाश्रिप्रसुश्रुवे विनष्टासु स्वमायासु भूयश्चावृज केशवम् सुसोपगुहमानोमुम् ददृशेवस्थितम् बहिः तम् मुष्टिभिर्विनिघ्नन्तम् वज्रसारैरधोक्षजः करेण कर्णमूलेऽहम् यथा त्वाष्ट्रम् मरुत्पतिः स आहतो विश्वजिता ह्यवज्ञया परिभ्रमद्गात्र उदस्तलोचनः विष्णुबाह्यम् घृशिरोरुहोपतद्यथा नगेन्द्रो लुलितो नभस्वता क्षितौ शयानम् तमकुण्ठवर्चसम् करालध्वंष्टम् परिदस्तदच्छदम् अजादयो वीक्ष संसुरागता अहो इमाम् को नु लभेत् संस्थितिम् यम् योगिनो योगसमाधिनारहो ध्यायन्ति लिङ्गादशतो मुमुक्षया तस्यैष दैत्यऋषभः पदाहतो मुखम् प्रपश्यंस्तनुमुत्ससर्जः एतौ तौ पार्षदावश्य चापाज्जातौ असद्गतिम् पुनः कतिपयस्थानम् प्रपत्स्येतेह जन्मभिः देवाऊचुः नमो नमस्तेऽखिलजज्ञतन्तवे स्थितौ गृहीतामलसत्त्वमूर्तये दिष्ट्या हतोऽयम् जगतामरुन्तुदास्त्वत्पादभक्त्या वयमेष निर्वृतः मैत्रेय उवाच एवं हिरण्याक्षमसह्य विक्रमं ससादयित्वा हरिरादिशूकरः जगाम लोकं सोमखंडितोत्सवं समीडितः पुष्करविष्टरादिभिः मया जथानुक्तमवादिते हरेः कृतावतारस्य सुमित्रचेष्टितं यथा हिरण्याक्ष उदार विक्रम महामृधे क्रीडनवद् निराकृतः सुतौ इति कौसारवाख्याताम् आश्रित्य भगवत्कथाम् छतानन्दम् परम् लेभे महाभागवतो द्विज अन्येषाम् पुण्यश्लोकानाम् उद्दाम् जस्याम् शताम् उपसृत भवेन्मोद श्रीवत्साङ्कस्य किम् पुनः यो गजेन्द्रम् झकग्रस्तम् ध्यायन्तम् चरणाम्बुजम् कुष्कृशन्तीनाम् करेणुनाम् कृच्छ्रतो मोचय द्रुतम् तम सुखाराध्यम ऋजुभिर अनन्य शरणैर्नृभिः कृतज्ञः को न सेवेत दुराराध्यम साधुभिः यो वै हिरण्याक्षबधम महाद्भुतम विक्रीडितम कारण शुकरात्मना शृणोति गाय तन्मोदतञ्जसा विमुच्यते ब्रह्मबधादपि द्विजः एतन्महापुण्यमलम् पवित्रम् धन्यम् यशस्यम् पदमायुराशिषाम् प्राणीन्द्रियाणाम् युधिसौर्गवर्धनम् नारायणन्ते गतिरङ्ग शृणवताम् इति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीये स्कन्धे हिरण्याक्षबधो नाम एकोनविंशोऽध्यायः।